नमस्सर्वेभ्यः। अद्य शिक्षावर्गस्य षड्विंशः पाठः, डिसेम्बर् मासस्य नवमः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वयं शानच् प्रत्ययस्य विषये किञ्चित् ज्ञातवन्तः। शानच् प्रत्ययः शत्रु प्रत्ययस्यैव अर्थे भवति। तत्र कुत्र आन कुत्र मान भवति इति, नत्वं कुत्र भवति, शिशुलिङ्गेषु कथं रूपाणि भवन्ति इति ज्ञातवन्तः। एवमेव काव्यकथायां सुभाषितद्वयं तथा काव्यकथायां किरात अर्जुनीयस्य तृतीयं भागं पठितवन्तः। किञ्चित् पुनरावर्तनं कृत्वा अग्रे गच्छामः। शानच्प्रत्ययः शत्रुप्रत्ययस्यैव अर्थे, अर्थात् समकालिकत्वं, क्रियाद्वयस्य समकालिकत्वं, समानकर्तृत्वं च बोधयति। आत्मनेपदिभ्यः धातुभ्यः अथवा उभयपदिभ्यः धातुभ्यः शानच् प्रत्ययः भवति। यथा पठति इति परस्मैपदी धातोः, शत्र प्रत्ययेन पठन् इति, एवं वन्द् इति आत्मनेपदिनः धातोः, वन्दमानः इति शानच् भवति। यदि धातुः उभयपदी यथा पच् धातुः, तदा पचन् पचमानः इति शत्रु शानचौ उभौ अपि भवतः। तत्र शानच् प्रत्यय प्रत्ययान्तरूपेषु कुत्रचित् मान इति श्रूयते, कुत्रचित् आन इति। तद् ज्ञातुम् एकः उपायः, बहुवचनरूपे यदि अन्ते इति श्रूयते तर्हि शानजन्तरूपे मान इति भवति। यथा वन्दन्ते वन्दमानः, लभन्ते लभमानः, युध्यन्ते युध्यमानः, प्रार्थयन्ते प्रार्थयमानः, मन्यन्ते मन्यमानः। यत्र तु अन्ते इत्युक्ते बहुवचनरूपे अते इति भवति, तत्र शानजन्तम् आन इति भवति, न तु मान इति। यथा जानते जानानः, भुञ्जते भुञ्जानः, ददते ददानः, अधीयते अधीयानः, शेरते शयानः इति। णत्वम् अपि भवति, शानचियः नकारः तस्य कुर्वाणः म्रियमाणः वीक्षमाणः इत्यादिषु नकारस्य णत्वं भवति। तत्र नियमद्वयं दृष्टवन्तः, यदि नकारात् पूर्वं रेफः अथवा षकारः अस्ति तर्हि णत्वं भवति, तस्य रेफस्य नकारस्य षकारनकारयोर्वां मध्ये ये वर्णाः सन्ति ते स्वर हयवर कवर्ग पवर्ग अनुस्वारेषु अन्तर्भवन्ति चेत्, मध्ये विद्यमानाः सर्वेपि वर्णाः एतेषु अन्तर्भवन्ति चेत् णत्वं भवति। यदि तयोः मध्ये अन्यः कोऽपि वर्णः अस्ति, यथा क्रीणानः इत्यत्र रेफस्य नकारस्य च मध्ये एकः णकारः अस्ति, एवं गृह्णानः, सो तादृशेषु णत्वं न भवति। पुल्लिङ्गे वन्दमानः वन्दमानौ वन्दमानाः इति, स्त्रीलिङ्गे वन्दमाना वन्दमाने वन्दमानाः इति, नपुंसके वन्दमानं वन्दमाने वन्दमानानि इति, अकारान्त
పుల్లింగ ఆకారాంత స్త్రీలింగ అకారాంత నపుంసకలింగ రూపాణి భవంతి సర్వేషామపి షాణుదంతాన. తత్ర ఏకం లఘు అభ్యాసం కుర్మః. ప్రకాశమాన ఇత్యస్తి, తత్ర విశేష్యం ఆశ్రిత్య సముచితం లింగం వచనం చ ఉపయుజ్య వక్తవ్యం. ఈ వస్తుమిచ్చంతి హస్తమున్నయంతి.
సూర్య
ప్రకాశమాన,
రాజ్ఞీ ప్రకాశమానా,
ఆం
భవనం ప్రకాశమానం, నక్షత్రాణి ప్రకాశమానాని, దీపాః ప్రకాశమానాః, బాలౌ ప్రకాశమానౌ, కుండలే ప్రకాశమానే, దేవ్యః ప్రకాశమానః. దేవ్యః దేవీ 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 దేవ్యౌ దేవ్యః ప్రకాశమా ప్రకాశమానాః.
సమ్యక్. దేవ్యః ప్రకాశమానాః. ఉత్తమం. ధన్యవాదః. షానచ్ ప్రత్యయః యథాశత్రు ప్రత్యయః తథా విశేషణం భవతి. అతః విశేష్యస్య లింగం వచనం విభక్తిం ఆశ్రిత్య భవతి. ఇదానీం దృష్టవంతః లింగం వచనం కథం సమానం భవతి ఇతి. ఏవమేవ విభక్తౌ అపి భవతి. శయానః శిశుః హసతి. శయానః శిశుః, ద స్లీపింగ్ చైల్డ్ స్మైల్స్ ఆర్ లవ్స్. సో శయానం శిశుం మా ఉత్థాపయ. సో శిశుం మా ఉత్థాపయ, తస్య విశేషణత్వేన శయానం శిశుం మా ఉత్థాపయ. సో శయానేన శిశునా సహ కహ అస్తి. శయానాయ శిశవే స్వస్తి. సో స్వస్తి ఇత్యస్య యోగే చతుర్థీ భవతి, లైక్ నమః స్వస్తి, మే దేర్ బి గుడ్ ఇత్యర్థః. ఇట్స్ జస్ట్ బెనడిక్షన్. సో శయానాత్ శిశోః సుందరం కిం. సో మోర్ బ్యూటిఫుల్ దాన్ పంచమి విభక్తి. శయానస్య శిశోః మాత గృహే గృహకార్యే నిరత. శయానే శిశౌ అవధానం భవతు. సో వాచ్ ఓవర్ ఇట్ ఇత్యర్థః. ఏవం విశేషణస్య విభక్తిం ఆశ్రిత్య, క్షమ్యతాం, విశేష్యస్య విభక్తిం ఆశ్రిత్య శానజంతస్య విభక్తిః అపి పరివర్తతే. కించిర్ అభ్యాసం కుర్మః. తత్ర కంసే విద్యమానస్య పదస్య సముచిత విభక్తి రూపం వక్తవ్యం. ఏ వక్తుమిచ్చంతి హస్తం ఉన్నయంతు.
ఛాత్రేభ్యః ప్రమాణపత్రం దీయతే. స్పర్ధమానేభ్య ఛాత్రేభ్య ప్రమాణపత్రం దీయతే.
సమ్యక్. స్పర్ధమానేభ్యః ఛాత్రేభ్యః ప్రమాణపత్రం దీయతే.
వానరాన పశ్య కూర్దమానాన వానరాన పశ్య.
సమ్యక్. కూర్దమానాన్ వానరాన్ పశ్య. సో సీ ద మంకీస్ విచ్ ఆర్ జంపింగ్. కూర్దమానాః. సో ప్రమాణపత్రం ఇస్ సర్టిఫికేట్. సర్టిఫికేట్ ఇస్ గివన్ టు పార్టిసిపేటింగ్ స్టూడెంట్స్, కంప్లీటింగ్ స్టూడెంట్స్.
భగవన్ संवादमानेभ्यः राक्षसेभ्यः अस्मान् रक्ष.
बाधमानेभ्यः राक्षसेभ्यः अस्मान् रक्ष.
शस्त्र
शास्त्रसंरक्षणार्थं
यतमानैः विद्वद्भिः महान् श्रमः क्रियते.
सो यतमानैः विद्वद्भिः, सो बै स्कॉलर्स् हु आर् अटेम्प्टिङ्ग् फार् शास्त्रसंरक्षणं.
युद्धमानेषु योधेषु युध्यमानेषु योधेषु कः श्रेष्ठः.
युध्यमानेषु योधेषु, सो अमङ्ग् द फैटिङ्ग् सोल्जर्स् हू इस् द बेस्ट्. युध्यमानेषु योधेषु, सो एवं विशेष्यस्य विभक्तिं दृष्ट्वा लेखनीयम्. सो अग्रिम अभ्यासे वाक्यद्वयं विद्यते, तत्र शानचिन्तं रूपम् उपयुज्य वाक्ये योजनीये. यथा भक्तः वन्दते तं देवः अनुगृह्णाति. सो भक्तः वन्दते, वन्दमानः भक्तः तं, सो वन्दमानं भक्तं देवः अनुगृह्णाति. वन्दमानं भक्तं देवः अनुगृह्णाति. सो एवं वाक्यानां वाक्ययोः योजनं करणीयम्.
नमस्ते मान्ये. कम्पमानात् वृक्षात् तस्मात् पर्णानि पतन्ति.
तस्मात् इति नापेक्षितं. सो कम्पमानात् वृक्षात् पर्णानि पतन्ति. सो कम्पमानः वृक्षः, तस्मात् कम्पमानात् वृक्षात् पर्णानि पतन्ति. उत्तमम्. सो अग्रिमम् क्षम्यताम्. अन्ये केऽपि वक्तुमिच्छन्ति?
बटवः वेदैः अधीयमानैः गुरुः नमस्कृतः.
अधीयान इति अधीयानैः,
अधीयानैः वेदैः.
अधीयान मीन्स् स्टडीङ्ग्. हू आर् स्टडीङ्ग्?
ओ बटः, बटैः, बटैः.
वटु, वटु शब्दः.
वटु शब्दः वटद्भिः.
वटुभिः, सम्यक्. सो अधीयानैः वटुभिः. किम् अधीयानैः? वेदम्.
वेदम्.
सो वेदम् अधीयानैः वटुभिः.
वटुभिः गुरु नमस्कृतः.
नमस्कृतः, सम्यक्. सो आल्वेस् वाट् इस् इट् क्वालिफैङ्ग्? सो द कर्ता इन् दिस् केस् वेन् यु आर् डूयिङ्ग् दिस् कैण्ड् आफ् शानच्. सो वेदम् अधीयानैः वटुभिः. वटुः ब्रह्मचारी. दोस् हु हव् हाड् उपनयन अण्ड् आर् डूयिङ्ग् वेदाध्ययन आर् काल्ड् वटु. सो वेदम् अधीयानैः वटुभिः. वटवः अधीयते, अधीयानाः वटवः. तैः अधीयानैः वटुभिः गुरुः नमस्कृतः. अन्ये? एनिबडि एल्स्?
तस्य उत्थापनं मास्तु.
शयानः
तस्य उत्थापनं मास्तु.
विभक्ति शया तस्य सो तस्य इत्यस्ति सो शयाना इति विशेषणम् सो समान विभक्तिः शयानस्य शयानस्य तस्य उत्थापनं मास्तु सो द विभक्ति शुड बी द सेम एज द विशेष्य देयर ही सो सः शेते मीन्स शयानः सः सो शयानस्य तस्य उत्थापनं मास्तु अग्रे अन्य केपि
पत्नी भुङ्क्ते तां पतिः आहूतवान्
भुञ्जानं
पत्नीं पतिः आहूतवान्
विच् लिङ्ग
भुञ्जा स्त्रीलिङ्ग पत्नी भुञ्जानां पत्नीं पतिः आहूतवान्
सम्यक् भुञ्जानां पत्नीं पतिः आहूतवान् सो भुञ्जानां पत्नीं सो आदौ यु हेव् टु गेट् द शानच् दट् इस् दिस् वन् अभ्यासेन भवति सो शानजन्तानां सर्वत्र अस्माकम् आत्मनेपदिषु क्लेशः भवत्येव यतोहि आत्मनेपदीनां धातूनाम् उपयोगः अत्यन्तं न्यूनतया क्रियते अस्माभिः सर्वत्र खादति इत्येव वदामः भुङ्क्ते इति न वदामः अतः अभ्यासः अधिकः अपेक्षते आत्मनेपदिषु आदौ शानजन्तं ज्ञात्वा ततः का विभक्तिः किं लिङ्गं किं वचनम् इति चिन्तनीयम्
मित्राणि धनं प्राप्यन्ते तेभ्यः यथाशक्तिः
यथाशक्ति देहि
प्रार्थयमानाय प्रार्थयमानेभ्यः मित्रेभ्यः
सम्यक्
मित्रेभ्यः धनं यथाशक्ति देहि
उत्तमं धनं प्रार्थयमानेभ्यः मित्रेभ्यः यथाशक्ति देहि यथाशक्ति as much as possible so give it to the friends who are asking for money so prarthayamanebhyah mitrebhyah okay agrimam anybody else so please try there's nothing wrong you just have to keep trying and you'll get it No.
चर्चा प्रवर्तते तस्यां सह सोत्साहं भागं वहति प्रवर्त प्रवर्तमानाम् प्रवर्तमान प्रवर्त तस्याम् प्रवर्तमानस्याम् चर्चा
प्रवर्तमानायाम् क्रमायाम्
प्रवर्तमानायाम् चर्चा प्रवर्तमानायाम् तस्याम्
चर्चा इत्यस्य सप्तमी सो प्रवर्तमानायाम्
प्रवर्तमानायाम् सप्तमी फॉर विच वन
चर्चा व्हाट इज द विशेष्य
ओके ओके चर्चा चर्चायाम् चर्चायाम् प्रवर्तमानायाम्
सह
सह सोत्साहम् बाहम् वहति
प्रवर्तमानायाम् चर्चायाम् सह सोत्साहम् भागम् वहति He takes part enthusiastically in the debate which is ongoing. So, pravartamanayam charchayam.
Okay. Thank
you. Okay. So, vriddhah pushpani vikrinate. Tabhihi alpam dhanameva prapyate. So, how do we go about this? Is, so, first thing, पदमस्ति द क्रियापदं तस्य शानजन्तं विक्रीणते सो टेक् आफ् द ते राइट सो विक्रीण आन इस् द दिस् वन् सिन्स् देर् इस् नो अन्ते इट् इस् ओन्ली अते वी डोण्ट् हाव् मान सो वी हाव् आन सो विक्रीण आन विक्रीणान दट् इस् योर् शानजन्त राइट विक्रीणान means what selling so kaha who is selling kaihi vikrayanam kriyate so vriddhah right tabhihi ityasti so strilinge vriddhah old women so vikrinanaah vriddhah right so far clear so first the kriyapadam kriyapadasya shanajantam kim so if it is ante you put mana Say like say, pravartate, pravartete, pravartante. So, bahuvachane ante ityasti chet mana. So, pravartamana. Or if it is ate, then you have ana. So, vikrinana. You can even write it down in paper, like steps, you know, like you do in maths to make sure you're getting it right. So, the first step is to get to the shanach. Say vikrinana. Next, Who is doing it? Since Shanach is a Visheshana to the Karta. So what is, who is selling? Vriddha. So Vriddhaha Vikrinanaha. So you have to establish the Visheshana Vishesha. So here Pravartamana. What is Pravartamana? Charcha. So Pravartamana Charcha. Vikrinanaha Vriddhaha. Okay. So next you have to add the correct vibhakti so you have vikrinanaah vriddhaah taabhihi so vikrinanaabhihi vriddhaabhihi it will be the same vibhakti for both so vikrinanaabhihi vriddhaabhihi anyat sarvam samanam you are not changing anything else so everything else you just have to repeat the only thing you change are the shanach and the visheshana So, etadrishaha abhyasaha diyante parikshayam for both Kshatri and Shanach. That is the method. First, take the kriyapada, decide if it is Kshatri or Shanach, get the Shanach or Kshatri root word, then associate it with the visheshya. What is the visheshya? So, then add the vibhakti. So, if you do it step by step, at least while practicing at home anantaram saralataya vakyam agacchati adav yadyapi klesha iti bhasate so yatha yatha kurvanti tatha saralam bhavati it just has to the mind has to together make it a visheshana put the same linga vachana vibhakti and of course you have to get the correct form of the shanach so one step it is difficult break it down so Take the Kriyapada, get to the Shanach, then make it a Visheshana, then add the Vibhakti. So that way it will be better chances of getting it right. So what did we get here? So vikrinana is the shanach. So vikrinanaha vriddhaha tabhihi. So vikrinanabhihi vriddhabhihi. Everything else you just put it. Wherever you put it, it doesn't matter. So what do they sell? Pushpani. So pushpani vikrinanabhihi vriddhabhihi. By old women who are selling the flowers. Alpam dhanameva prapyate. Only a little money is got, obtained. Right? So, the same way if we look at the previous ones. So let's just. So, bhunkte. Right? So, bhunkte is the kriyapada. Bhunkte, bhunjate, bhunjate. So, patya pustake ani kriya padani santi atmane pada, you will have to know at least the first three forms. Okay. So, bhunkte, bhunjate, bhunjate. So, bhunjana. So, bhunjate is the bahuvachana form. So, you have bhunja. And since there is no ante, it is ate, it will be bhunja ana. So, bhunjana. So, bhunjana. What is bhunjana? Who is eating? Patni. So, bhunjana patni. Okay. Tam. This is dvitiya. So, bhunjanam patnim patihi ahutavan. So, bhunjanam patnim patihi ahutavan. So, prarthayante. Prarthayante. So, there is ante. So, it is mana. So, prarthaya mana. Prarthaya mana is requesting. Who is requesting? Mitrani. So, prarthaya manani mitrani. Tebhyaha. So, prarthaya manebhyaha mitrebhyaha. Dhanam. So, the rest you just put it. So, prarthayamanebhyaha mitrebhyaha dhanam prarthayamanebhyaha mitrebhyaha yatha shakti dehi. So, whatever is before this kriyapada, you put before this. The rest, you just add it. Okay? So, abhyasaha diyante, vihakaryam kurvantu, it is not that difficult. It just requires practice. So, Kshatri Shanach. Pratyayoho Vishayaha Adhitaha. So, Shiksha Stare Vyakarane Antimaha Vishayaha Asti. Sat Saptami Athava Sati Saptami Prayoga. Katham Kriyate Satsaptami Prayogaha Adya Satya Vishaye Kinchit Jani Maha. We'll do the practical part tomorrow, next week. So theoretically Satsaptami Kada Upayogaha Bhavati Kidrishaha Prayogaha Bhavati Iti Kinchit Jani Maha. Saha Agachati Iti Kachit Kriya Asti. Saha Agachati. Kada agachati iti prashnam pruchhamah. Saha kada agachati. Tasya bhinnani uttarani bhavanti. Yadi samayaha sakshat jnayate. Saha ekavadane agachati. He comes at 1 o'clock. Iti vaktum shakyate. Athava saha madhyanne agachati. Ityapi vaktum shakyate. Saha mama bhojanat purvam agachati. Aham bhojanam karomi tasmat purvam saha agachati. He comes before I eat. So evam bhinneshu prasangeshu bhinnani uttarani bhavati. So you can know the exact time, or you can just specify a general time of the day, or you can relate it to another kriya. So, mama bhojanam asti, tasmat purvam agachati, iti ekam uttaram bhavati.
अत्र किम् अस्ति आगमनक्रिया इति एका क्रिया अस्ति भोजनक्रिया इति अपरा क्रिया अस्ति सो देर् आर् टु आक्षन् एण्ड् यु आर् रिलेटिङ्ग् द टु आक्षन् सो क्रियाद्वयं क्रियाद्वयस्य सम्बन्धः त्रेधा भवितुम् अर्हति एकं समानकाले सो यस्मिन् काले आगमनं तस्मिन्नेव काले भोजनं सो टु आक्षन् दे कुड् बि हेपनिङ्ग् अट् द सेम् टैम् सो आगमनं भवति तस्मिन्नेव काले भोजनं भवति इति शक्यते अथवा भोजनात् पूर्वम् आगमनं सो आदौ आगमनम् अनन्तरं भोजनम् इति भवति अथवा भोजनात् अनन्तरम् आगमनं सो पूर्वं भोजनम् अनन्तरम् आगमनम् इति भवितुम् अर्हति सो त्रेधा सम्बन्धः भवति क्रियाद्वयस्य सो यु केन् रिलेट् द टु आक्षन्स् इन् त्री वेस् ईदर् दे हेपन् सैमल्टेनियस्लि or action A happens first followed by action B or action B happens first followed by action A so yada vayam bhashayam vadamaha tadapi evam eva si bhojanat purvam agacchati athava bhojanat anantaram agacchati ityadi prayogaha kartum shakyate kintu asmin sandarbhe सो क्रियापद्वयस्य सम्बन्धं बोधयितुं सत्सप्तमी इत्यस्य प्रयोगः अपि क्रियते सो इट् इस् अ स्पेशल् यूसेज् कैण्ड् आफ् यूसेज् वेर् वि आर् रिलेटिङ्ग् टु आक्षन्स् द टैम् आफ् टु आक्षन्स् सो वेन् वेदर् दे आर् हेपनिङ्ग् सैमल्टेनियस्लि आर् आफ्टर् संथिङ्ग् आर् बिफोर् संथिङ्ग् So that is what we call Satsaptami. Udaharanam Pashyamaha. Aham bhojanam kritavan asam. I had already finished my meal. I had eaten saha agachati. Which means the bhojanakriya is first and then agamanakriya. So tada kimuchyate mayi bhojanam kritavati sati saha agachati. So this is a kind of prayoga. So mayi bhojanam kritavati sati. So when I had already eaten, saha agacchati. Or aham bhojanam kurvan asmi saha agacchati. So I am eating, saha agacchati. Tada kimuchyate mayi bhojanam kurvati sati. Kṛtavān is bhūtakāla, kurvan is kṣatri, vartamāna. So, mayi bhojanam kurvati sati, as I was eating. So, at the same time when I was eating, saha āgacchati. So, mayi bhojanam kṛtavati saha āgacchati. Mayi bhojanam kurvati saha āgacchati. Athava, maya bhojanam itopi na kṛtam. The bhojana is still in the future. So he comes before I eat. So aham bhojanam karishyan asmi. So don't worry about these forms. We will discuss it in detail later. This kritavati, kurvati and you have one more. The karishyati. So idanim tadvishaye cinta mastu. We'll analyze it further in the next class. So just see the pattern of sentences. Mayi bhojanam karishyati sati. So when I was yet to eat. So I have not eaten. So my eating is in the future. Saha agacchati. So these three are prayogas of Sat Saptami. Also known as Sati Saptami. Okay. So what it does is it relates to action. Okay. कः अर्थः मयि भोजनं कृतवती सति इत्युक्ते भोजनानन्तरं सः आगच्छति भोजनं कुर्वति सति भोजनकाले सः आगच्छति भोजनं करिष्यति सति भोजनात् पूर्वं सः आगच्छति इत्यर्थः सो तम् अर्थं बोधयितुं
सत्सप्तमी इत्यस्य प्रयोगः क्रियते. सो अस्य भिन्नानि नामानि सन्ति, सत्सप्तमी, सतिसप्तमी, भावलक्षणसप्तमी इत्यादि बहुधा उच्यते. सो किं प्रधानं क्रियया क्रिया लक्ष्यते. सो देर आर् टू आक्षन्, यु आर् ऐडेण्टिफैयिङ्ग् द टैम् आफ् वन् आक्षन् बै द अदर् आक्षन्. पूर्वं कः प्रश्नः आसीत्, कदा आगच्छति, आगमनक्रियायाः समयः कः, वेन् डस् हि कम्, दट् वास् द क्वश्चन्. यु आर् ऐडेण्टिफैयिङ्ग् द टैम् आफ् कमिङ्ग् बै अनदर् आक्षन् विच् इस् ईटिङ्ग्. सो यु आर् रिलेटिङ्ग् इट् टु ईटिङ्ग्. सो इदर् अट् द टैम् आर् बिफोर् आर् आफ्टर् ईटिङ्ग्. सो क्रियया क्रिया लक्ष्यते. So one action is identified by the time of another action. That is the basis of Satsaptami. Okay? So tatra kriya dvayam bhavati. So pustake jnapya jnapaka bhavaha ityasti. Tatra kriya dvayam bhavati. Jnapya kriya. That kriya which you are trying to identify. When did it happen? Agamanam kada iti jnatavyam. Sa kriya jnapya kriya. So what is identifying that action? Jnapaka kriya, which is the bhojanam, eating. So you are identifying the time of coming by relating it to the time of eating. Okay? This sambandha. So the time of one action known through the time of another is called jnapya jnapaka bhava. So asmin arthe saptami vibhaktihi bhavati iti sutram asti. Yasya cha bhavena bhavalakshanam iti sutram asti. Bhavaha ityukte kriya. So kriyaya kriyayaha lakshanam jnanam. Identifying one kriya by the other, tatra saptami vibhaktihi bhavati. सो सा सप्तमी एव सत्सप्तमी अथवा सतिसप्तमी इति उच्यते. सो इट् इस् नाट् फिक्स्ड् दट् दिस् इस् दिस् रिलेशन् दट् आगमन इस् ज्ञाप्य और् भोजनम् इस् ज्ञापक इस् नाट् फिक्स्ड्. यु केन् आल्सो डू इट् द अदर् वे. द फस्ट् इन्स्टन्स् वाट् डिड् वि आस्क्, सः आगच्छति, कदा आगच्छति, भोजनात् पूर्वं, भोजनकाले अथवा भोजनानन्तरम्. It can also be reversed. Kada bhojanam karoti? So agamanat purvam, agamanakale, athava agamananantaram ityapi kartum shakyate. Okay? Udaharanam pashyamaha. Kada bhojanam kritavan? Saha agatavan, aham bhojanam kritavan. So tasmin agatavati sati aham bhojanam kritavan. I ate. When did I eat? Tasmin agatavati. After he had come. So tasya agamananantaram aham bhojanam kritavan. Or saha agachan asit aham bhojanam kritavan. So tasmin agachati sati aham bhojanam kritavan. So agamanakale eva bhojanam. Or saha agamishyan asit अहं भोजनं कृतवान्. तस्मिन् आगमिष्यति सति अहं भोजनं कृतवान्. सो ऐ एट् वेन् हि वास् येट् टु कम्. सो आगमनात् पूर्वं कृतवान्, आगमनकाले कृतवान्, आगमनानन्तरं कृतवान्. सो इन् दिस् केस् कदा भोजनं कृतवान् इति प्रश्नः. सो भोजनकालः कः इति ज्ञातुम् आगमनक्रियां उपयुञ्ज्महे. सो आगमनकाले वा, आगमनानन्तरं वा, आगमनात् पूर्वं वा. सो हियर् ज्ञाप्य इस् भोजन, दट् इस् वाट् यु आर् ट्रैङ्ग् टु ऐडेण्टिफै. यु ऐडेण्टिफै इट् बै अनदर् क्रिया विच् इस् आगमन. सो दिस् इस् द बेसिस् आफ् सत्सप्तमी. सो यदा अत्र त्रेधा रिलेशन् अस्ति किल, समानकाले, पूर्वकाले अथवा अनन्तरम् So, bhuta vartamana bhavishyat. So, yada samanakale kriyadvayam bhavati, tada shatru athava shanach. Etayoho saptami vibhaktim upayujya vakyam rachayitum shaknumaha. Samanakalam bodhayitu. Shikshake agachati prati chatraha utthitavantaha. So, shikshake agachati sati. As the teacher was coming, so as he was entering, the students stood up. So, shikshake agachati sati chatraha utthitavantaha. Pradipe snanam kurvati sati. Snanam kurvati jalagamanam sthagitam. So, water stopped when he was taking bath. So, atra shikshakasya agamanam chatranam utthanam samakale bhavati. So, pradipasya snanam jalagamanasya sthaganam samanakale bhavati. So, janeshu kolahalam kurvatsu choraha palayitavan. So, when the people were all fighting or were engaged in commotion, choraha palayatavan, the thief fled. Evam yadi parasmai padi dhatuhu tarhi shatru bhavati shanach api bhavati. So sitayam pratikshamanayam satyam ravanaha sanyati veshena agataha. So yada sita pratikshamana asit tada saha agataha. Sarveshu vikshamaneshu eva saha abharanani choritavan. As everybody was looking on, he stole the jewels. Abharanani choritavan. Rikshe kampamane sati phalam patitam. So, evam samanakalam bodhayitum asmabhihi shatru shanach pratyayohu upayogaha kriyate. So, bhutakale anyasya, bhavishyatkale anyasya kriyate. Atra kimartham asya sapt saptami athava sati saptami yukte sapt shabdaha asti. As dhatohu shatru pratyayantaha asti. Tasya saptami vibhaktihi sapt iti bhavati. Sat iti pratipadikam. Pullinge san santau santaha. Strilinge sati satyau satyaha iti rupam bhavati. Tasya saptami vibhaktihi. Sat iti asudhatohu shatru pratyayantasya saptami vibhaktihi. Pullinge sati satohu satsu iti bhavati. Strilinge satyam satyohu satishu iti. Napumsakalinge sati satoho satsu. So, sat shabdaha atra upayujyate. So, if you see all words in brackets, we use the sat shabda, the correct vibhakti, the linga and vachana of the vibhakti saptami, of course. So, linga and vachana of the sat shabda to just indicate that this kind of usage, we are relating the kriya. So, this kriya is happening at the same time you have the other kriya. So, tam sambandham bodhayitum sat shabdasya prayogaha kriyate. Ataha sat saptami iti uchyate. Athava sati saptami. Sati iti pullinge ekavachanantam rupam. So, it is just indicator of this kind of saptami. So, to differentiate it from the normal saptami, the locative, we use the sat shabda. Prayogaha kartavyaha eva iti nasti. So, vrikshe kampamane phalam patitam iti vakyam sadhu. Vrikshe kampamane sati phalam patitam ityapi sadhu. So, satshabdaha bhavedeva iti nasti. Saha adhyaha, it is just implied. Davadeva. Prayena yada kavyeshu patamaha tata satshabdaha na bhavati. Samanyataha kevalam saptami eva upayujyate. To identify that saptami, we sometimes use sati. Kadachit upayogaha kriyate. Kriyate athava na. Satyaha saptamyaha tu sat saptami sati saptami iti nama. Okay. So it is called because of the sat shabda. it is not mandatory to use it. But it is mandatory use the correct form, as in the saptami of your shanat and the visheshya. So visheshanam visheshyam ubhayam saptami vibhaktau bhavati. Tena saha sat shabdasyapi saptami upayoktum shakyate. Okay, that is why we call it as sat saptami or sati saptami. The vyakarana, the theoretical, the technical grammatical name is bhava lakshana saptami. Bhava is kriya or action. Action is used as the identifier. So we call it bhava lakshana saptami. Okay, so this is the theory behind satsaptami. Agrima varge vayam satsaptamyaha abhyasam kurmaha. Shatrushanaj antayoho abhyasam kurmaha. So since we have studied Shatrushanaj, we are also studying satsaptami. But it need not be always Shatrushanaj. So samana kale yada bhavati tada Shatrushanajoho payogaha kriyate. Bhuta kale ityukte eka kriya purvam bhavati tada nantaram apara kriya ityukte ktavatu athavakta bhuta kridantayohu payogaha bhavati. Bhavishyat kale, there is a variety of shatrishanat in the bhavishyat kala. Asmabhihi kevalam pathan pathantau pathantaha iti adhitam. Vastutaha tasyaiva pathishyan pathishyantau pathishyantaha iti bhavishyat kale api shatrishanat pratyayohu prayogaha asti. So tasya prayogaha api kartum shakyate. But it is a very rare usage. So, shiksha pathyakrametu kevalam shatrishana chohu saptami tathak tavatu tasya saptami asti. Okay. Atre ekaha prashnaha kridanta rupani eva upayudyante va saptami. See, the saptami by default means you are identifying it for an object. Okay. See, if it is pure kriya, kevala kriya bhavati, tatra vibhaktehe sambhavaha eva nasti. You cannot add a vibhakti to the kriya itself. Right? So, pathati, pathadhatuhu asti, athava pathati iti tingantam, tatra vibhaktehe prasangaha eva nasti. Kada vibhakti hi bhavati? Vibhakti comes only when you are representing the action through a kridanta. Kriya vachakam padam dvedha bhavati. Ekam dhatoho sakshat ting pratyayah bhavati tingantam. Tatra vibhakti hi nasti. Vibhakti hi kada bhavati? Yada kriyayah kridanta rupasya upayogaha kriyate. Tada eva vibhakti hi bhavati. Ataha satsaptamyaha prayoge kridanta rupani bhavantyeva. You are representing that kriya in a different way. Yathatra. So the person who does the action is what you do in Shatrishanach or Ktaktavati. So kriyatu bhavati kridanta rupena kriya tasyaha upayogena saptami bhavati. Anya kepi prashnaha santi? Satyam. So there's a question, is it another way of forming sentences with yada and tada? Exactly. It is just that yada tada is a very simpler way of using. Yada aham bhojanam kurvan asam tada saha agataha. So yada tada will indicate it, but this is a more, you see it more in kavyas and other this one. Samanya vyavahare satsaptamyaha prayogaha asmabhi na kriyate, kartum shakyate, na kartavyamiti na kriyate, kintu praudhaha prayogaha. It is a an advanced usage than directly saying yada tada. Or as I said, you can easily say it as bhojanat purvam bhojanat anantaram, etc. So this is a different kind of usage. So samstatasya saundarya vardhakam, there are especially kavyeshu bahu samyak etesham upayogaha kriyate. Satsaptamyaha vishishya gadya kavyeshu bahu nam kriyanam yugapat prachalati tada satsaptamyaha prayogaha kriyate. Or the conditional distance, so it's very widely used in literature.
तत्र चम्पूरामायणे श्रीरामस्य जननं बोधयितुम् एकः श्लोकः अस्ति. उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुयुते मेषङ्गते पूषणि. कदा श्रीरामः जातः? ग्रहपञ्चके उच्चस्थे सति. सो वेन् फैव् ग्रहस् वेर् इन् देर् उच्चस्थान. सो ग्रहपञ्चके उच्चस्थे सति. सुरगुरौ सेन्दौ, सुरगुरुः बृहस्पतिः. इट् इस् जस्ट् डिस्क्रैबिङ्ग् द astronomical positions at the time of Rama's birth. So tatra sarvam api satsaptamya uchyate. Suragurau sendau, Induhu is Chandra. So Brihaspatihi Chandrena saha yada asit. Navamyam tithau, that is normal this one. Mesham gate pushani, pushan is Surya. Suryaha yada mesharashim pravishtavan asit. So tada suaramaha jataha iti. तो एवं बहुत्र दृश्यते सत्सप्तम्याः प्रयोगः. अन्ये केऽपि प्रश्नाः सन्ति? अग्रिमवर्गे वयम् एतादृशानां वाक्यानाम् अभ्यासं कुर्मः परीक्षादृष्टि. अग्रे तो काव्यांशेषु शिष्टमस्ति द्वयमेव. सो इवन् इन् काव्यांशेस् वी हेव् ओन्ली टू पार्ट्स् लेफ्ट्. दिस् इस् द किरातार्जुनीयस्य काव्यकथायां भागद्वयम् अवशिष्यते. अन्यत् सर्वम् अधीतं. किं भगवद्गीताश्लोकाः, सुभाषितानि, अनन्तरं न्यायाः, लौकिकन्यायाः सर्वम् अधीतं. सो देर् आर् ओन्ली टू पोर्शन्स् आफ् द दिस् थिङ्ग् लेफ्ट्. काव्यकथा, किरातार्जुनीयस्य काव्यकथां पठन्तः स्मः. किं जातं किरातार्जुनीये? पाण्डवाः वनवासे सन्ति. कश्चित् चारः दुर्योधनस्य राज्यभारविषयं निवेदयति. द्रौपदी, भीमः च वनवासम् अत्रैव समाप्य युद्धं कृत्वा राज्यं प्राप्नुमः इति युधिष्ठिरं वदतः. किन्तु युधिष्ठिरः नाङ्गीकरोति. तावति वेदव्यासः आगत्य शस्त्रसङ्ग्रहं कर्तुं पाण्डवान् सूचयति. अर्जुनः इन्द्रं शिवञ्च उद्दिश्य तपः कृत्वा शस्त्रास्त्राणि प्राप्नोतु इति सूचयति. अर्जुनं नेतुं यक्षमपि प्रेषयति. कश्चित् यक्षः आगत्य अर्जुनम् इन्द्रकीलपर्वतं नयति. तत्र इन्द्रकीलपर्वतस्य वर्णनं दृष्टं. तत्र अर्जुनः तपः कर्तुम् उद्यतः. तस्य तपसा, तत्र बहूनि वने बहूनि परिवर्तनानि आसन्. वन्यमृगाः हिंस्रकार्यं त्यक्तवन्तः. सर्वत्र भूमिः समृद्धा अभूत् इत्यादि. तथैव वनचराणां कश्चित् क्लेशः अपि जातः. तेषाम् आहारविहारेषु एतैः परिवर्तनैः क्लेशः उत्पन्नः. अतः ते सर्वे गत्वा इन्द्रं वदन्ति, एवम् अर्जुनस्य तपसः अस्माकं क्लेशः जायते इति. इन्द्रः वस्तुतः हृष्टः, यतोहि अर्जुनः तस्यैव पुत्रः. तथापि सः तस्य परीक्षार्थम् अप्सरस्त्रियः प्रेषयति. सो गत्वा अर्जुनस्य अर्जुनं भवतां कटाक्षपातैः वशीकृत्य तस्य तपोभङ्गार्थं प्रयत्नं कुर्वन्तु इति वदति. किन्तु सः अर्जुनः जितेन्द्रियः, अतः तासां विषये किमपि अवधानं न दत्तवान्. तासां तपोभङ्गप्रयत्नः विफलः. एतावत् ह्यः अधीतं. सो अद्य अग्रे पठामः.
अर्जुनस्य तपसः परीक्षा. अप्सरः स्त्रियः इन्द्रस्य समीपे अर्जुनस्य इन्द्रियविजयम् उक्तवत्यः. So the Apsara ladies went to Indra and told him that Arjuna had conquered his senses. Indro vartam shrutva santushtah. Punar Arjunasya pariksham kartum saha aichat. Indra was very happy. He wanted again to test Arjuna. Ataha saha munivesham dhrutavan tapovanam gatavan. He assumed the form of a sadhu and went to the forest.
Yes.
Muner darshanena Arjunah prabhavitah. Arjuna was very impressed by the sight of the sadhu. Saha munehe puja satkaram krutavan asane upaveshtum munim prarthitavan. He gave a lot of respect to the sadhu and entreated him to sit on the seat.
Samyak.
इन्द्रः आसने उपविष्टः सः त्वम् अधुना तरुणः तथापि तपश्चरसि तपः चरसि. He sat on the he sat and then he said त्वम् now you are a young person, so you are even then you are तपः चरसि, that you are following the tapas. I am santoshasya vishayah. This is a good thing. I am samsarah dukkamayah. This samsaram is very dukkamayam. Atah vivekinah samsaran moksham icchanti. So those who are jnani, vivekinah, they will look for the moksham, samsarat. Tvam param moksham na ichasi shatru vijayam abhilakshasi. So uttama moksham you don't want to have it, and shatru vijayam abhilakshya, you only want shatru vijayam. Shatru nashena parapidanam bhavati. So by killing the shatrus, papas will happen. Parapeedanam papasya karanam. So ataha vijaya icham parityaja. So you just leave the vijayam. Mokshartam prayatnam kuru. So you mokshartam prayatnam kuru. I am Indra Kila Parvatah Ganga Tire Asti Ataha Pavitraha. So this mountain is near the Ganga, so it is Pavitraha. Atra Moksha Paptihi Sulabaha Iti. So by attaining the moksha is very easy here. Upadesham Kritava.
So Indraha Arjunam Tasya Lakshyat Nivartayitum Prayatate. So Arjunasya Lakshyam Kim Shatram Prapya Shatrunamukari Vijayaha Eva Tasya Lakshyam Kintu Saha Tasmat Lakshyat Tam Chalayitam Prayatate. So Mokshartham Tvam Tapasya Machara Kimartham Shatru Vijayartham Karoshi Iti Indraha Upadishati. This portion is very important. Pariksha Drishtya Mukhyam. Okay, Indraha Kim Vadati Arjunasya Uttaram Kim Iti Prichanti. Avagatam atra sarvam. I think it's quite easy. Parapidanam, paresham pidanam. So harming others. So shatru nasha means there is harm, trouble for others, and which leads to sin. Sudharshika.
Arjunah uktavan tvayoktam yuktameva. Whatever you say is appropriate. Kim tvaha na moksham ichhami. Kim tvaham na moksham ichhami. But I do not desire moksham. Panduraja putraha aham Arjunaha asmi. I am son of Panduraja Arjuna. He is identifying himself. Duryodhanaha asmakam sarva sarvasvamapi apahritavan. Duryodhanam has taken everything from us. Anena mamagrajo yudhishthiro dukha taptaha. My elder brother Yudhishthira is full of sorrow. Tapasyam acharitum tasyagya vartate. So it was his instruction, agya, to follow tapasya. Indraha kshatriya kulasyeshta devaha. Indra is the ishta devata of kshatriyas. Tam adharayutum aham pragataha.
Aradhayitum.
Aradhayitum aham pragataha. So I pray to you.
I have come here. Atra agataha.
Come.
Indra mara. He doesn't know that the muni is Indra. Arjuna na janati. He thinks he is some space. So Indram aradhayitum. I have come here to worship Indra. Because he is the ishtadeva of kshatriyas. Kshatriyanam. Bala praptyartham, vijaya praptyartham, indrasya aradhanam maya kriyate. Harnesh, Kethi?
Mama grajo jute parajitah. My elder brother lost in Yuddha, dice game. Draupadi mama dharma patni. Draupadi is my wife. Duryodhana raja sabhayam tasya vastra aparanam karitvan. Duryodhana in raja sabha, Duryodhana taken out her vastras, means clothes. Idanim api duryadhana asmasu dvesham karoti. Asmasu, yes. Duryadhana asmasu dvesham karoti. Therefore, duryadhana is against us.
Even now, idanim api.
Even now he is against us. Atha shastrusha asmabhi jetavyah. Therefore, we want to conquer enemy.
Conquer him who is our enemy. Shatrusaha.
Shatrusaha. Yes, he is like enemy, okay. Shatru vijayehe. Mama abhilasha, I want, or my desire is to conquer the enemies. Moksha praptim mama ichha nasti. I do not desire moksha. Aham indrasya anugraham sampadayami. I want to get in Indra's blessing. Athava jivanam parvatasmin samayapi iti. Otherwise, samapayami iti. Otherwise, I will samayapi, means
end my life.
End my life in parvat.
In this mountain.
In mountains. Iti. That is what he told. Indraha Arjunasya Vachanani Srutva Santushta. Indra became very pleased with Arjuna's words. Shivam Uddishya Tapa Kartum Suchitva Adrushya Jata. Then he told him to do the tapa for Shivam. And he vanished.
Correct. So Indra identifies himself. He says he is pleased. And he says, Shivasya tapasyam karotu iti Arjunam uktva सः इन्द्रः निर्गतः. सो अर्जुनः स्वस्य लक्ष्ये स्थिरः अस्ति. किमर्थं मया एवं क्रियते, मया किं करणीयं किं न करणीयम् इति जानाति. सो मेनी टैम्स् वी टेन् टु गेट् डिस्ट्राक्टेड्. वी सेट् औट् टु अचीव् समथिङ्ग्, सम् अदर् गोल् मे आल्सो बि गुड्. देर् केन् बि मल्टिपल् गुड् गोल्स्, किन्तु अस्माकं लक्ष्यं किं, तत्र अस्माकं स्थैर्यं भवेत्. मोक्षप्राप्तिः सम्यक्, किन्तु मम इदानीं तत्र सः तत् लक्ष्यं न. अस्माकं परिस्थितिः एवमस्ति, अतः शत्रुविजयः एव अस्माकं लक्ष्यं. तदर्थमेव अहं प्रयत्नं करोमि. यदि इन्द्रस्य अनुग्रहः न भवति अहम् अत्रैव, इत्युक्ते प्राणत्यागपर्यन्तमपि अहं तदेव साधयितुमिच्छामि इति अर्जुनः स्थैर्यं प्रकटयति. तदा इन्द्रः सन्तुष्टः शिवस्य आराधनं कर्तुं तं सूचयित्वा निर्गच्छति.
शिवाराधनार्थम् अर्जुनः कठिनं तप एव कृतवान्. अर्जुना दीप्तपनन् aiming at Shiva. Upavasam acharitavan. He fasted. Ete eva padena sitva tapah kritavan. He stood on his leg and did the tapah. Alam, jalam, ityaditam, sarvam sitva tapah acharitavan. He refrained from eating fruit and water. And with the penance. Gora tapasanena sarvatra tapah sanjatah. The whole place was so hot because of the severe penance. Tapah asahamana muneyah. Shiva-samipam agachan. The Rishimunis who were in the forest, in that area, they could not bear that heat and they went to Shiva. Tapat rakshitum prarthitavantah. They prayed to Shiva to protect them from that heat. Shivah abayam dattavan. Shiva protected them.
He gave them abhaya. He said, he asked them to not fear. So Arjunaha itopi tivrataram tapah karoti. So there are different levels of tapas. Adau kevalam phalani bhujyante, anantaram kevalam paranani, anantaram kevalam jalam, tadanantaram tadapina prana nirodha paryantam api kriyate. So even holding the breath. So tena yaha tapah sanjataha. Sattaptaha munayaha shivam prarthitavantaha shivaha abhayam dattavan. Okay, so this is where the main plot, that is the Kirata Arjuniya, starts.
मूक इति कश्चनव कश्चन दानवः. Certain devas are like dumb. Mooka.
Mooka is the name of a certain demon. Mooka iti.
Okay. Varaha rupena saha tapo vidnam kritavan. Taking the form of Varaha, he tried to bring disturbance to the tapa. Arjunaha kupitaha. Arjuna got angry. Varaham hantam udhyuktaha. He wanted to destroy that Varaha. Tadaiva Shivaha kirata veshena agatavan. At that time Shivam donned the robe of hunter and he came. शिवो वराहस्योपरि बाणं क्षिप्तवान्. Shiva throws the arrow on the Varaha. Arjunopi tasmineva samaye banam akshipat. At that same time, Arjuna api threw his arrow on the Varaha. Banadvayam varahasya sharire lagnam. Both the arrows landed on the body of Varaha. Varaha mrutaha. The Varaha dies. Arjunaha sasya banam netum varahasya samipam agatavan. Arjuna takes his arrow and goes near the boar, Varaha.
Goes near the boar to take his arrow.
Yeah, to take his arrow. Yes.
एतावद् अस्ति अग्रिमभागे किं भवति तत्रैव किरात अर्जुनयोः किरातवेषधारिणः शिवस्य अर्जुनस्य च युद्धं भवति प्रीतः शिवः अन्ते पाशुपतास्त्रं ददाति इति अग्रिमभागस्य कथा हा इन्द्रः किमर्थं मुनिवेषं धृतवान्
अर्जुनं परीक्षार्थम् अर्जुनस्य परीक्षार्थं मुनिवेशं कृतवान्
सम्यक् अर्जुनस्य परीक्षार्थं सो अप्सरसः तस्य इन्द्रियजयविषये उक्तवत्यः इतोपि तस्य परीक्षार्थं मुनिवेशं धृतवान् राजेश
विवेकेन किम् इच्छति विवेकेन मोक्षम् इच्छति
सम्यक् विवेकिनः मोक्षम् इच्छन्ति इति इन्द्रः अर्जुनं कथयति इन्द्रकीलपर्वतः किमर्थं पवित्रः
इन्द्रकीलपर्वतः किमर्थं पवित्रः I don't know the answer for this.
Kutra asti Indrakila Parvataha.
Indrakila Parvataha, Kutra asti.
Asyaha Tire. On the banks of Ganga.
Oh, okay.
Tire asti. Ataha saha pavitraha sulabhataya mokshaha labhyate iti indraha kathayati.
Okay. Sorry, I didn't know.
इन्द्रकीलपर्वतः गङ्गातीरे अस्ति अतः पवित्रः अर्जुनः किमर्थम् इन्द्रम् आराधयितुम् इच्छति
इन्द्रः क्षत्रिय कुलस्य इष्टदेवः अतः अर्जुनः इन्द्रम् आराधयितुम् इच्छति
सम्यक् क्षत्रियकुलस्य इष्टदेवः सः अतः मुनयः किमर्थं शिवसमीपम् अगच्छन् तदर्थम् अगच्छन्
बहु तापः जातः तद् न सहनं कर्तुं शक्यते अतः मुनयः शिवसमीपम् आगच्छन्
अर्जुनस्य तपसा उत्पन्नं तापम् अपहमानाः मुनयः शिवसमीपम् अगच्छन् अद्य अस्माभिः शानच् प्रत्ययस्य विशेषणरूपेण उपयोगः कथं भवति इति ज्ञातं सत्सप्तम्याः विषये किञ्चित् परिचयं प्राप्तवन्तः कस्मिन् सन्दर्भे अस्याः प्रयोगः क्रियते किमर्थं सत्सप्तमी अथवा सतीसप्तमी इति नामधेयम् इति ज्ञातवन्तः काव्यकथाभागे अर्जुनस्य तपसः परीक्षाभागं पठितवन्तः सो प्रोबब्ली नेक्स्ट् क्लास् आर् मेक्सिमम् आन् द सण्डे आफ् नेक्स्ट् वीक् विल् बि कम्प्लीटिङ्ग् दिस् प्रायः अग्रिमवर्गे समाप्तं भवति सो अग्रिमशनिवासरे पञ्चदशदिनाङ्के मिलामः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो